एस रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। उपराष्ट्रपतिः नन्दबहादुर पुन कथयति नेपालस्य मौलिक लोक संस्कृतेः विकास प्रवर्धनयोः कृते संघीय प्रादेशिक स्थानीयैः त्रयाणामेव स्तराणां सर्वकारैः विशेषं ध्यानं प्रदातव्यम्। राष्ट्रिय लोक दोहरी प्रतिष्ठानेन ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे उपराष्ट्रपतिः पुन अवदत् मौलिक संस्कृतेः उचित संरक्षण प्रचार प्रसारयोः विहितयोः सतोः अन्तर्राष्ट्रिय क्षेत्रे नेपालस्य प्रतिष्ठा वर्धयितुं शक्ष्यते। उपराष्ट्रपतिः पुन आधुनिकतायाः प्रवेशनस्य नाम्नि लोक संस्कृतेः मौलिकतायाः विलोपनस्य पक्षे यथासमयं ध्यानं दातुं कलाकारान् अनुरुणत्। नेकपा एमाले दलस्य अध्यक्षः केपी शर्मा ओली वदति न्यायिक प्रकरणं प्रदर्श्य मुद्रार्जने संलग्नं दलं एमाले दलं नास्ति। वीरगंज महानगरपालिकायाः प्रसौनीस्थाने नेकपा एमाले दलस्य परसा जनपद समित्या ह्यः आयोजिते कार्यक्रमे अध्यक्ष ओली अवदत् एमाले दलं राष्ट्रस्य राष्ट्रियतायाश्च संरक्षण पुरस्सरं देश निर्माणे क्रियाशीलं दलं वर्तते। अध्यक्ष ओली अवाशत तराई मधेसक क्षेत्रे विद्यमानां नागरिकतायाः समस्यां समाधातुम् आत्मनः प्रधानमन्त्रिकाले अध्यादेशम् आनीय वंशज सन्तत्यै नागरिकतां प्रदातुं प्रयतितम्। एवमेव नेपाल सर्वकारीय कर्मचारी संघटन एकादशं राष्ट्रियाधिवेशनं ह्यः काष्ठमण्डपे उद्घाटयन् अध्यक्ष ओली आगामिनो वैशाख मासस्य त्रिंशे दिवसे सम्पत्स्यमाने स्थानीय स्तराणां निर्वाचने स्वतन्त्रतया निष्पक्षरूपेण च कार्यं कर्तुं कर्मचारिणः परामृशत्। नेपाली कांग्रेस दलस्य महामन्त्री विश्वप्रकाश शर्मा तर्कयति देशस्य विकासाय एमसीसी नामधेया अमेरिका देशीय सहयोग परियोजना स्वीकृता वर्तते। झापा जनपदस्य कांग्रेस दलस्य भद्रपुर नगरस्य दशम वडा क्षेत्रेण ह्यः आयोजितं कार्यक्रमं सम्बोधयन् महामन्त्री शर्मा अगदत् केवलं देशस्य आयस्रोतसा विकासः न सम्भवतीति हेतोः अमेरिका देशीय सहयोगोऽसौ स्वीकृतो वर्तते। महामन्त्री शर्मा विदेशेष् यूनां श्रमं विक्रीय आयार्जक राष्ट्रस्य परिचयं परिवर्त्य विद्युत विक्रेत्री राष्ट्रस्य रूपेण देशं रूपान्तरयितुं एमसीसी परियोजना स्वीकृतेति तर्केन अवासत अमेरिका चीन देशयोः अन्तर्द्वन्द्वं पक्षविपक्षं निर्मातुम् इच्छुकैः जनैः एमसीसी परियोजनायाः विषये प्रतिकूल भ्रमः सृष्टो वर्तते। नेकपा एकीकृत समाजवादी दलस्य वरिष्ठ नेता झरनाथ खनाल कथयति स्थानीय स्तराणाम् आसन्न निर्वाचने दलेन सर्वेष् स्थानेष् प्रत्याशिता प्रस्तूयते। दलस्य इलाम काष्ठमण्डप सम्पर्क मञ्चेन ह्यः आयोजिते मेलने वरिष्ठ नेता खनाल जनवादी क्रान्तौ सफलायां सत्यामपि निर्धनताया शोषणस्य अन्यायस्य जातीय विभेदस्य च अवस्था अद्यापि वर्तते इत्यतः एतादृश्याम् अवस्थायां राष्ट्रस्य हितम् असम्भवमस्तीति समस्पष्टयत्। वरिष्ठ नेता खनाल कलाकारै समाजवादी कला साहित्ययोः सहजनं विधेयम् इत्यत्र बलम् अदात्। नेपाली कांग्रेस दलस्य सहमहामन्त्री बद्रीप्रसाद पाण्डे भासते निर्धारित दिनांके एव स्थानीय निर्वाचनं भविता। बाजुरा जनपदीयेन नेपाल प्रेस यूनियन संघेन ह्यो मातडीस्थाने आयोजिते पत्रकार सम्मेलने सहमहामन्त्री पाण्डे संविधानस्य क्रियान्वयनाय लोकतान्त्रिक गणतन्त्रस्य रक्षायै च निर्धारित दिनांके एव निर्वाचनं भवितेति विषये विश्वस्ताः भवितुम् अनुरुणत्। सहमहामन्त्री पाण्डे अवोचत् घटबन्धन सर्वकारस्य सद्भावोऽपि वडाक्षेत्रस्तरात् जनपदस्तरं यावत् आगामिनि वैशाखे सम्पत्स्यमाने निर्वाचने घटबन्धनस्य विषये केन्द्रेण हस्तक्षेपो न करिष्यते। सहमहामन्त्री पाण्डे अगदत् नेकपा एमाले दलेन एमसीसी समुदायाः विषये जनतायां प्रसारितस्य भ्रमस्य निवारणत्वेन नेपाली कांग्रेस दलेन मासावधि अभियानं संचालयिष्यमाणं वर्तते। सुर्खेत जनपदस्य भेरीगंगा नगरपालिकायाः एकादश वडाक्षेत्रवर्तिन्यां रामघाटस्थितायां भेरीनद्यां स्नानस्य क्रमे तिस्रो बालबालिकाः विलुप्ताः सन्ति। गतसायं पञ्चवादने स्नानस्य क्रमे एताः विलुप्ताः इति सुर्खेत जनपद प्रहरी कार्यालयो ज्ञापयति। विलुप्तासु भेरीगंगा नगरपालिकायाः एकादश वडाक्षेत्रस्य दशवर्षीया गंगा खड्का, अष्टवर्षीया कृष्णाजीसी, दशवर्षीयो दिनेश बुढा च सन्तीति स्थानीयाः वदन्ति। विलुप्तानां बालबालिकानां नेपाल प्रहरिणा सशस्त्र प्रहरी बलेन स्थानीय जनैश्च कार्यं विधीयमानमस्तीति सुर्खेत जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकः रामप्रसाद घर्ती अबोधयत्। ऊर्जो जलस्रोत सिंचन मन्त्री पम्फा भूषालः अन्तर्राष्ट्रियापणे शिलातैलीया पदार्थानां मूल्यवृद्ध्या आयातं वोढुं काठिन्यं सिष्टमस्तीत्यतः वैद्युतोपकरणानां प्रयोगाय अनुरुणद्धि। ललितपुरे ह्यः आयोजिते कार्यक्रमे मन्त्री भूषालः विगतकालस्य तुलनायां सम्प्रति विद्युत शुल्कं सुलभं वर्तते इत्यतः स्वदेशस्य एव ऊर्ज प्रयोक्तुम् अनुरुणत्। मन्त्री भूषालः वैद्युतोपकरणानां प्रयोगेण देशस्य आर्थिक क्षेत्रे सहयोगो भवतीत्यतः जलविद्युत पूर्णोपयोगं कृत्वा देशस्य आर्थिकावस्थाम् उन्नेतुम् अनुरुद्धवती। नगरीय विकास मन्त्री रामकुमार झाँक्री निगदति राष्ट्रिय नगरनीतौ समयानुकूल सुधार आवश्यकोस्ति। कैलाली जनपदस्य धनगढ़ी स्थाने ह्य आयोजितायां राष्ट्रिय नगरनीते नगर विकासाधिनियमस्य च निर्माण सम्बद्धायां कार्यशालायां मन्त्री झाँक्री नगराणां विकासाय समय सापेक्ष नीति आवश्यकी अस्ति तत्र बलं प्रादात्। मन्त्री झाँक्री अवदत् पर्वतीय क्षेत्रात् तराई क्षेत्रं प्रति विपुल नगरात् स्वल्प नगरं च प्रति वर्धमानं स्थानान्तरणं समाहूयपूर्णमस्ति तथा नगर विकासाधिनियमो निर्माणाधीनो वर्तते। ह्यैव समाजवादी प्रेस संगठनस्य कैलाली जनपद समित्या आयोजिते पत्रकार सम्मेलने मन्त्री झाँक्री अकथयत् नवीन नगराणां निर्माणाय आवश्यक वित्तस्य नीतिश्च आवश्यकता वर्तते। संस्कृति पर्यटन नागरिकोट डेयर मन्त्री प्रेमबहादुर आले कथयति स्थानीय स्तराणाम आगामी निर्वाचने नेपाल कम्युनिष्ट पार्टी एकीकृत समाजवादी दलम एकलम प्रतिस्पर्धितुम तत्परम वर्तते। धनगढ़ी विमानस्थले गतदिने आयोजित पत्रकार सम्मेलने मन्त्री आले निर्वाचने गठबन्धने सत्यपि असत्यपि स्वदलम एकल निर्वाचनम प्रतिस्पर्धितुम तत्परमस्तीति अवोचत। टर्की देशस्य अन्तालिया स्थाने वर्तमानस्य परराष्ट्रमन्त्रिणः डाक्टर नारायण खड्काविदस्य संयुक्त अरब इमिरेट्स देशस्य अर्थमन्त्रिणः अब्दुल्ला बिन तक अल मारी इत्यस्य च मध्ये ह्यो द्विपक्षीय मेलवार्ता सम्पन्ना वर्तते। मेलने एतयोर्मध्ये द्विपक्षीय सम्बन्धस्य पारस्परिक सहयोगस्य महत्वपूर्ण पक्षाणां च विषयाणां समीक्षया सह देशद्वयस्य व्यापार निवेशनावसरयोः अतिरिक्त विस्ताराय विमृष्टमासीत। मेलने परराष्ट्रमन्त्रिणा डाक्टर खड्काविदेन नेपाल्युत्पादनस्य निर्यातं वर्धयितुं व्यापारं सहजीकर्तुं नेपाले उपलब्ध वृत्तिवसरान् उपयोक्तुं च यूएई देशस्य अर्थमन्त्री अनुरूद्ध इति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। ह्यैव परराष्ट्रमन्त्रिणा डाक्टर खड्काविदेन 50 अधिकानां राष्ट्राणां परराष्ट्रमन्त्रिणां नीति निर्मातृणां विज्ञानां च सहभागितायां आयोजितं लोकतान्त्रिक शासन सुरक्षा सबल क्षेत्रीय विकासाय नूतन एशिया चेति विषयकं पृथक पृथक सत्रद्वयं सम्बोध्य सामयिक क्षेत्रेषु अन्तर्राष्ट्रियेषु च विषयेषु केन्द्रीभूय नेपालस्य धारणा प्रस्तुतासीत्। नेपाली कांग्रेस दलस्य धनुषा जनपदस्य सभापतिपदे योगेन्द्र पंजियारः निर्वाचितो वर्तते। परैह्य सम्पन्ने द्वितीय चरणस्य मतदाने संस्थापन पक्षस्य प्रत्याशिनं सन्तोष यादवं 89.67 मतैः पराजित्य पंजियारः जनपद सभापतिपदे निर्वाचितोऽस्ति। नवनिर्वाचितः सभापतिः पंजियारः धनुषा जनपदस्य चिरेश्वर नगरपालिकायाः प्रमुखो वर्तते। पञ्चदश दिवसीय मध्यमा मिथिला परिक्रमायाः तीर्थयात्रिणः धनुषा जनपदस्य प्रसिद्ध धार्मिक तीर्थस्थलं धनुषा धाम प्राप्ताः सन्ति इति समाचाराः।